ॐ श्रीकृष्ण परब्रह्मणे नमः।
श्रीमद्भगवद्गीता
अथ तृतीयोऽध्यायः।
कर्मयोगः
अर्जुन उवाच जायसि चेत् कर्मणस्ते मता बुद्धिर्जनार्दनः तत्किं कर्मणि घोरे माम् नियोजयसि केशव व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् श्रीभगवानुवाच लोकेऽस्मिन् द्विविधानिष्टा पुरा प्रोक्ता मया
नघः
ज्ञानयोगेन साङ्ख्यानाम् कर्मयोगेन योगिनाम् न कर्मणामनारम्भात् नैष्कर्म्यं पुरुषो श्नुते न च संन्यसनादेव सिद्धिं समधिगच्छति नहि कश्चिक्षणमपि जातु तिष्ठत्य कर्म कृत् कार्यते ह्यवशः कर्म सर्वप्रकृतिजैर्गुणैः कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् इन्द्रियार्थां विमूढात्मा मिथ्याचारः स उच्यते यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुना कर्मेन्द्रियै कर्मयोगम् असक्तः स विशिष्यते नियतं कुरु कर्मत्वम् कर्म ज्यायो ह्य कर्मणः शरीरयात्रापि च ते न प्रसिद्ध्येद कर्मणः यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्म बन्धनः तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर सह यज्ञा प्रजा सृष्ट्वा पुरोवाच प्रजापतिः अनेन प्रसविष्यध्वम् एष वोऽस्तिष्ठकामधुक् देवान् भावयतानेन ే దేవా భావయంతు పరస్పరం భావయంత శ్రేయ
పరమవాప్స్యథా
ఇష్టాం భోగాం హి వో దేవాః దాస్యంతే యజ్ఞ భావితాః తైర్దత్తాన ప్రదాయేభ్యః యో భుంతేస్తేన ఏవ సః యజ్ఞశిష్టాసినః సంతః ముచ్యంతే సర్వ కిల్బిషైః భుంజతే తే త్వగం పాపాః ఏ పచంత్యాత్మకారణాత్ అన్నాద్ భవంతి భూతాని పర్జన్యాదన్న సంభవః యజ్ఞాద్ భవతి పర్జన్యః యజ్ఞ కర్మ సముద్భవః కర్మ బ్రహ్మోద్భవం విద్ధి బ్రహ్మాక్షర సముద్భవం తస్మాత్ సర్వగతం బ్రహ్మ నిత్యం యజ్ఞే ప్రతిష్ఠితం ఏవం ప్రవర్తితం చక్రం నానువర్తయతీహయః అభాయురింద్రియారామః మోహం పార్థ సజీవతి యత్వాత్మరతిరేవ స్యాత్ ఆత్మతృప్తశ్చ మానవః ఆత్మన్యేవ చ సంతుష్టః తస్య కార్యం న విద్యతే నైవ తస్య కృతే నార్థః నా కృతే నేహ కశ్చన న చాస్య సర్వభూతేషు కశ్చిదర్ధవ్యపాశ్రయః తస్మాదసక్తః సతతం కార్యం కర్మ సమాచర అసక్తో హ్యాచరన్ కర్మ పరమాప్నోతి పురుషః కర్మణైవ హి సంసిద్ధిం ఆస్థితా జనకాదయః లోక సంగ్రహమేవాపి సంపశ్యన్ కర్తుమర్హసి యద్యదాచరతి శ్రేష్ఠః తత్తదేవేతరో జనః సయత్ ప్రమాణం కురుతే లోకస్తదనువర్తతే నమే పార్థాస్తి కర్తవ్యం త్రిషు లోకేషు కించన నానవాప్తమవాప్తవ్యం वर्तयेव च कर्मणि
वर्तयेव च कर्मणि
यदि ह्यहं न वर्तेयम्
यदि ह्यहं न वर्तेयम्
जातु कर्मण्यतन्द्रितः
जातु कर्मण्यतन्द्रितः
मम वर्त्मानुवर्तन्ते
मम वर्त्मानुवर्तन्ते
मनुष्या पार्थ सर्वशः
मनुष्या पार्थ सर्वशः
उत्सीदेयुर्मे लोकाः
उत्सीदेयुर्मे लोकाः
न कुर्यां कर्म चेदहम्
न कुर्यां कर्म चेदहम्
शङ्करस्य च कर्तास्याम्
शङ्करस्य च कर्तास्याम्
उपहन्यामि मा प्रजाः
उपहन्यामि मा प्रजाः
सक्ता कर्मण्य विद्वांसः
सक्ता कर्मण्य विद्वांसः
यथा कुर्वन्ति भारत
यथा कुर्वन्ति भारत
कुर्यात् विद्वांस्तथा सक्तः
कुर्यात् विद्वांस्तथा सक्तः
चिकीर्षुर्लोकसङ्ग्रहम् न बुद्धिभेदं जनयेत्
न बुद्धिभेदं जनयेत्
अज्ञानां कर्म संगिनां
अज्ञानां कर्म संगिनां
जोषयेत् सर्वकर्माणि
जोषयेत् सर्वकर्माणि
विद्वान् युक्तः समाचरन्
विद्वान् युक्तः समाचरन्
प्रकृते क्रियमाणानि
प्रकृते क्रियमाणानि
गुणैकर्माणि सर्वशः
गुणैकर्माणि सर्वशः
अहङ्कारविमूढात्मा
अहङ्कारविमूढात्मा
कर्ताहमिति मन्यते
कर्ताहमिति मन्यते
तत्त्ववित्तु महाबाहो
तत्त्ववित्तु महाबाहो
गुणकर्म विभागयोः
गुणकर्म विभागयोः
गुणा गुणेषु वर्तन्त
गुणा गुणेषु वर्तन्त
इति मत्वा न सज्जते
इति मत्वा न सज्जते
प्रकृते गुणसम्मूढाः
प्रकृते गुणसम्मूढाः
सज्जन्ते गुणकर्मसु
सज्जन्ते गुणकर्मसु
तान् कृत्स्नविदो मन्दान्
तान् कृत्स्नविदो मन्दान्
कृत्स्नभिन्न विचालयेत्
कृत्स्नभिन्न विचालयेत्
मयि सर्वाणि कर्माणि
मयि सर्वाणि कर्माणि
सन्न्यस्याध्यात्मचेतसा
सन्न्यस्याध्यात्मचेतसा
निरासीर्निर्ममो भूत्वा
निरासीर्निर्ममो भूत्वा
युध्यस्व विगतज्वरः
युध्यस्व विगतज्वरः
ये मे मतमिदं नित्यम्
ये मे मतमिदं नित्यम्
अनुतिष्ठन्ति मानवाः
अनुतिष्ठन्ति मानवाः
श्रद्धावन्तो न सूयन्तः
श्रद्धावन्तो न सूयन्तः
उच्यन्ते तेऽपि कर्मभिः
उच्यन्ते तेऽपि कर्मभिः
ये त्वे तदभ्यसूयन्तः
ये त्वे तदभ्यसूयन्तः
नानुतिष्ठन्ति मे मतम्
नानुतिष्ठन्ति मे मतम्
सर्वज्ञानविमूढांस्ताम्
सर्वज्ञानविमूढांस्ताम्
विद्धि नष्टान चेतसः
विद्धि नष्टान चेतसः
सदृशं चेष्टते स्वस्याः
सदृशं चेष्टते स्वस्याः
प्रकृते ज्ञानवानपि
प्रकृते ज्ञानवानपि
प्रकृतिं यान्ति भूतानि
प्रकृतिं यान्ति भूतानि
निग्रहः किं करिष्यति
निग्रहः किं करिष्यति
इन्द्रियस्येन्द्रियस्याद्धे
इन्द्रियस्येन्द्रियस्याद्धे
रागद्वेषौ व्यवस्थितौ
रागद्वेषौ व्यवस्थितौ
तयोर्नवशमागच्छेत्
तयोर्नवशमागच्छेत्
ಸೌಹ್ಯಸ್ಯ ಪರಿಪಂಧಿನೌ ಶ್ರೇಯಾನ್ ಸ್ವಧರ್ಮೋ ವಿಗುಣಃ ಪರಧರ್ಮಸ್ವನುಷ್ಠಿತಾತ್ ಸ್ವಧರ್ಮೇ ನಿಧನಂ ಶ್ರೇಯಃ ಪರಧರ್ಮೋ ಭಯಾವಹಃ ಅರ್ಜುನ ಉವಾಚ ಅಭಕೇನ ಪ್ರಯುಕ್ತೋಯಂ ಪಾಪಂ ಚರತಿ ಪುರುಷಃ ಅನಿಚ್ಛನ್ನಪಿ ವಾ ಶ್ನೇಯ ಬಲಾದಿವ ನಿಯೋಜಿತಃ ಶ್ರೀಭಗವಾನುವಾಚ ಕಾಮಯೇಷ ಕ್ರೋಧಯೇಷಃ ರಜೋಗುಣ ಸಮುದ್ಭವಃ ಮಹಾಶನೋ ಮಹಾಪಾಪ್ಮಾ ವಿಧ್ಯೇನಮಿಹ ವೈರಿಣಂ ಧೂಮೇನಾವ್ರಿಯತೆ ವಹ್ನಿಃ ಯಥಾ ದರ್ಶೋ ಮಲೇನ ಚ ಯಥೋಲ್ಬೇನಾವೃತೋ ಗರ್ಭಃ ತಥಾ ತೇನೇದಮಾವೃತಂ ಆವೃತಂ ಜ್ಞಾನಮೇತೇನ ಜ್ಞಾನಿನೋ ನಿತ್ಯ ವೈರಿಣಾ ಕಾಮರೂಪೇಣ ಕೌಂತೇಯ ದುಷ್ಪೂರೇಣಾನಲೇನ ಚ ಇಂದ್ರಿಯಾಣಿ ಮನೋಬುದ್ಧಿಃ ಅಸ್ಯಾಧಿಷ್ಠಾನ ಮುಚ್ಯತೆ ಏತೈರ್ವಿಮೋಹಯತ್ಯೇಷಃ ಜ್ಞಾನಮಾವೃತ್ಯ ದೇಹಿನಂ ತಸ್ಮಾತ್ ತ್ವಮಿಂದ್ರಿಯಾಣ್ಯಾದೌ ನಿಯಮ್ಯ ಭರತರ್ಷಭ ಪಾಪ್ಮಾನಂ ಪ್ರಜಹಿಹ್ಯೇನಂ ಜ್ಞಾನ ವಿಜ್ಞಾನ ನಾಶನಂ ಇಂದ್ರಿಯಾನಿ ಪರಾಣ್ಯಾಹುಃ ಇಂದ್ರಿಯೇಭ್ಯಃ ಪರಂ ಮನಃ ಮನಸಸ್ತು ಪರಾ ಬುದ್ಧಿಃ ಯೋ ಬುದ್ಧೇ ಪರತಸ್ತು ಸಹ ಏವಂ ಬುದ್ಧೇ ಪರಂ ಬುದ್ಧ್ವಾ ಸಂಸ್ತಭ್ಯಾತ್ಮಾನಮಾತ್ಮನಃ ಜಹಿ ಶತ್ರುಂ ಮಹಾಬಾಹೋ ಕಾಮರೂಪಂ ದುರಾಸದಂ ಓಂ ತತ್ಸತ್ ಇತಿ ಶ್ರೀಮದ್ಭಗವದ್ಗೀತಾಸು ಉಪನಿಷತ್ಸು ಬ್ರಹ್ಮವಿದ್ಯಾಯಾಂ ಯೋಗಶಾಸ್ತ್ರೇ ಶ್ರೀಕೃಷ್ಣಾರ್ಜುನ ಸಂವಾದೇ ಕರ್ಮಯೋಗೋ ನಾಮ
ಕರ್ಮಯೋಗೋ ನಾಮ
ತೃತೀಯೋಧ್ಯಾಯಃ.